नमस्ते, आरभामहे। वाक्यकारं रुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। गतपाठे अजन्तनपुंसकलिङ्गशब्देषु केषाञ्चन शब्दानां प्रक्रियां दृष्टवन्तः। अस्मिन् पाठे एतेषु शब्देषु रिटन् वारि, दधि, मधु, पुनः कर्तृ, एतेषु कर्तृशब्दस्य प्रक्रियाम् उदिश्यामि। इट् वास् रिमैनिङ्ग् प्रक्रिया आफ् कर्तृशब्द इन् नपुंसकलिङ्ग, तत् सम्प्रति पश्यामः। अत्र विशेषः कोऽपि नास्ति कर्तृशब्दे, यथा वारिशब्दस्य दधिशब्दस्य च प्रक्रिया कृता तद्वदेव कर्तृशब्दस्यापि प्रक्रिया। कर्तृ देन् सुप्रत्यय, सो द सुप्रत्यय लुक् भवति, डिसपियर्स्। अतः कर्तृ इत्येव अवशिष्यते, अतः कर्तृ इत्येव रूपम् एकवचने। देन् कर्तृ प्लस् इ द्विवचन, इ इकोच विभक्तौ इति नुमागमः, रिटन् हियर् नुमागम, सो कर्तृन्, इट् बिकम्स् कर्तृन्। इन्नुम् ओन्लि नकार रिमैन्स्, नकारः अवशिष्यते, अतः कर्तृन् एस् इ दिस् कर्तृनि देन् नत्व कर्तृनि then this nakara gets nakara because there is ru kartru rukara hasti ataha nakarasya nakaraha bhavati ja kartrani kartrani iti rupam kartru kartrani ಎನ್ನಿನ್ನ ಬಹುವಚನ ಕರ್ತೃಣಿ ಕರ್ತೃ ಇ ಪುನಃ ನುಮಾಗಮಃ ಕರ್ತೃನ್ ಇ ततः दीर्घः सर्वनामस्थाने चासंबुद्धौ इति सूत्रेण, सो दीर्घ कर्तृ न प्लस इ कर्तृनि देन अगेन नकारस्य नकार कर्तृनि इनिशियलि देन् नकार सो कर्तृणि Kartruni. Kartru kartruni kartruni. Evam dvitiya vibhaktau api kartru kartruni kartruni. Anyatra ida ajadi pratyaha. Ajadi pratyaha asti sarvatra api numagamah bhavati ajadi pratyaya pare. So kartruna kartrubhyam kartrubhi kartrune so kartru num kartrun kartrune then natva kartrune kartrubhyam kartrubhyaha kartrunaha kartrubhyam kartrubhyaha kartrunaha kartrunoho kartruna that is the pullinga only kartruna kartrani kartrunoho kartrushu iti atra rupani likhitam asti kartru kartruni kartruni iti sambodhane as we did there are two forms he kartru or he kartaha if it gets guna then kartaha otherwise kartru and actually there are in tritiya from tritiya onwards there are two forms one form is like pullinga what happens to the pullinga shabda in tritiya bhakti ekavachana so it becomes it is dvitiya bhakti from here on Tritiya Bhakti onwards, there are two forms. So in Tritiya Bhakti Ekavachana, Kartra Shabdasya, Tritiya Bhakti Ekavachane, Kartra Iti Rupam. So that form also possible here. Not written, but there are two forms. Kartra. So Kartruna, Kartra. Kartra is also correct. Then Kartra is also correct. It optionally gets pullinga form. Adha Kartrana, Kartra. Kartrabhyam in pullinga also Kartrabhyam ityeva. So it's same. Kartrabhi same. Kartrane, Chaturthi. In pullinga it is Kartre. So that form also possible. Kartre. Kartrubhyam kartrubhyah kartrunaha pullinga kartuhu so optionally that form also possible kartuhu kartuhu and here shashti also kartuhu kartrunaha kartrubhyam kartrubhyah kartuhu kartrunaha or kartuhu kartrunoho or kartu kartroho kartrunam same it is in pullinga also kartrunam kartrani or kartari kartrunoho kartroho and kartrishu same so wherever there is a different form in pullinga from tritiya bhakti onwards tani rupani api vikalpena bhavanti those forms are also optionally possible so kartra shabda has two forms in napumsakalinga from tritiya onwards not in prathama bhakti or dvitiya bhakti tritiya bhakti onwards अत्र प्रश्नाः सन्ति बहुवचने कथं दीर्घः दीर्घरकारः दीर्घ अत्र मया लिखितं सूत्रम् एकनिमेषं दर्शयिष्यामि सर्वनामस्थाने च असम्बुद्धौ इति अस्ति सूत्रम् सर्वनामस्थाने च असम्बुद्धौ इदं सर्वनामस्थानप्रत्ययः बहुवचनप्रत्ययः सर्वनामस्थानप्रत्ययः इति सर्वनामस्थानसंज्ञा अतः सर्वनामस्थाने परे नकारान्तस्य दीर्घः कर्त्रन् इति नकारान्तः शब्दः तस्मात् अत्र दीर्घः उपधादीर्घः प्रवर्तते अनेन सूत्रेण दीर्घः बहुवचनम् पुनः प्रतियोगिन इति नपुंसक लिंग शब्द रूपाणि कथं भवन्ति दधि इव वा प्रतियोगिन वस्तुतः नकारांत शब्दः एव अस्ति अतः अत्र नुमागमस्य अपेक्षा नास्ति किन्तु रूपम् एवं दृश्यते समानं दृश्यते किन्तु नुमागमः न भवति यदि प्रतियोगी प्रतियोगिनी प्रतियोगिनी इति इति समानं रूपं भवति किन्तु नुमागमः न नापेक्षितः यतः नकारः अस्ति एव तत्र शब्दे इस् देर् अ डिफ्रेण्ट् फार्म् इन् सप्तमी बहुवचन फार् कर्तृशब्द नो बिकास् अत्र कर्तृषु नपुंसकलिङ्ग् आल्सो इट्स् कर्तृषु सो इन् पुल्लिङ्ग् आल्सो इट् कर्तृषु अतः इस् ओन्लि वन् फार्म् इन् बहुवचन रूपद्वयं न भवति यत्र ओन्लि सो ओन्लि अजादिप्रत्ययपरे रूपद्वयं भवति यतः पुल्लिङ्गे अन्यद् रूपम् अस्ति अत्र अन्यत् अत्र नुमागमः भवति अतः रूपम् अन्यदस्ति बट् हलादिप्रत्ययपरे लैक् भ्यां भिस् एक्सेट्रा अत्र विशेषः कोऽपि नास्ति पुल्लिङ्गे नपुंसकलिङ्गे च समानं रूपम् अस्ति अतः एकमेव रूपम् अत्र रूपद्वयं नास्ति प्रश्नाः सन्ति वा वेङ्कटेश्वरजी प्रश्नः अस्ति वा नमस्ते
सर् नमस्ते सर्वनामस्थानप्रति आर् द फस्ट् फैव् प्रत्ययस् सो द्वितीयविभक्ति बहुवचन प्रत्यये विल् बि काल्ड् सर्वनामस्थानप्रत्यय
ओके ओके उत्तमं सि देर् आर् टु रूल्स् रिगार्डिङ्ग् सर्वनामस्थान संज्ञा एकं तु द फस्ट् फैव् प्रत्ययस् इन् पुल्लिङ्ग and when in स्त्रीलिङ्ग is possible so those are called sarvanamasthana pratyayas but in napumsakalinga this she pratyay is called sarvanamasthana she pratyaya she is this one this e which I have written e is actually she so she replaces jas and shas jas shasoho shihi so shas is a dvitiya vibhakti bahuvachana pratyaya so
this does not apply to saptami ekavachana
no this is different this is not she pratyaya it is just e but this is she this is actually she jas shasoho she replaces jas and shas and shakara disappears because with samnya only e remains e iti avashishyate and this she has sarvanama sthana samnya
No.
Therefore, even in Napumsakalinga, Dvitiya Vibhakti Bahuvachanasya api sarvanama sthana samnya asti. But only Napumsakalinga. And in Napumsakalinga, only these two pratyayas have sarvanama sthana samnya. So, prathasya ekavachanasya nasti, divachanasya nasti, atra sarvanama sthana samnya nasti. Atra api nasti, atra api nasti. Only prathama bahuvachana, dvitiya bahuvachana. Dasya sarvanama sthana samnya asti. Okay.
વિદ્વાન દ્વારા સત્સંગની શોભા વધે છે જ્ઞાની પોતે સમજી પણ શકે અને બીજાને
કા પ્રશ્ન न श्रूयते किमपि। नैव न श्रूयते, अनन्तरं तत्र लिखन्तु एकं निमिषं गणपतिजी, ऐ एम् ट्रैङ्ग् टु अन्म्यूट् बट् नाट् टेकिङ्ग् टैम्। How to identify sarvanama sthanam? Okay. See, there are only two rules regarding sarvanama sthana. One is shi sarvanama sthanam. Is prathama sutram. Shi sarvanama sthana. Shi always replaces jas and shas in napumsakalinga. Jas shasoho shihi iti sutram. Ataha napumsakalinge in prathama bhakti bahuvachana, dvitiya bhakti bahuvachana. तस्य सर्वनाम स्थान संज्ञा अस्ति। देन् द सेकेण्ड् सूत्र इस् सुट् अनपुंसकस्य। सुट् अनपुंसकस्य, सुट् रेफर्स् टु फैव् प्रत्ययस्, फस्ट् फैव् प्रत्ययस्, सु औजस् अम् औट्, दिस् आर् काल्ड् सुट् बिकास् सु औजस् अम् औट् एण्ड्स् वित् टु, सो फ्रम् सु सूतः आरभ्य टु पर्यन्तं ये प्रत्ययाः सन्ति ते सुट् इति कथ्यन्ते, फस्ट् फैव् प्रत्ययस्। बट् द सूत्र सेस् सुट् अनपुंसकस्य, नपुंसकस्य न, इट् मीन्स् इन् पुल्लिङ्गे पुनः स्त्रीलिङ्गे दिस् फस्ट् फैव् प्रत्ययास् आर् कन्सिडर्ड् एस् सर्वनाम स्थान प्रत्ययास्। अतः इन् नपुंसकलिङ्ग ओन्ली षि प्रत्ययः सर्वनाम स्थानसंज्ञा, एण्ड् इन् पुल्लिङ्ग एण्ड् स्त्रीलिङ्ग द फस्ट् फैव् प्रत्ययास् दे हाव् सर्वनाम स्थानसंज्ञा। अतः ओन्लि दीस् आर् द सर्वनाम स्थान प्रत्ययास्, अन्ये न सन्ति। सप्तमी बहुवचने विसर्गयुक्तरूपं भवति वा? विसर्गः कथं भवितुमर्हति? हौ इट् इस् पासिबल् टु गेट् विसर्ग इन् सप्तमी बहुवचनं? बिकास् द कर्तृ इस् अ प्रातिपदिक, कर्तृ इस् अ प्रातिपदिक, एण्ड् सु इस् अ प्रत्यय, so we can't get, so it's impossible to get visarga here. To get visarga, the it should end with su, then only we can get visarga. So su will be replaced with repa and repa gets visarga. That is the Panini's krama. Evam Panini hai kramaha, but it doesn't end with su. Atra su iti pratyaya, atah visarga bhavitum narhati. नपुंसकलिङ्गं तृतीया टु सप्तमी विभक्ति, डस् पुल्लिङ्गं रिप्लेस् द विभक्ति, मीन्स् आप्षनलि पुल्लिङ्ग फार्म्स् केन् बि यूस्ड् फ्रम् तृतीया आन्वर्ड्स्, आप्षनलि पुल्लिङ्ग फार्म्स् केन् आल्सो बि यूस्ड् इति सूत्रस्य अर्थः। ऐ विल् गिव् द सूत्र नम्बर् सो देट् दट् इस् सूत्र इस् तृतीयादिषु भाषितपुंस्कं, वेरि लाङ्ग् सूत्र, तृतीयादिषु भाषितपुंस्कं पुंवत् गालवस्य इति सूत्रमस्ति। सूत्रसङ्ख्यां वदामि, सो 7174 इट् इस् सूत्र 7174 तृतीयादिषु भाषितपुंस्कं पुंवत् गालवस्य इति सूत्रम्। सो बै दिस् सूत्र टु फार्म्स् आप्षनलि कर्तृशब्द देर् आर् टु फार्म्स् तृतीयादिषु इति सूत्रम्। अस्तु, ओके, अग्रे सरामः। सर्वनाम शब्दाः। सर्वनाम इति कश्चन गणः, इट्स अ ग्रुप। सर्वनाम केषां सर्वनाम संज्ञा अस्ति? देयर आर मेनी सूत्रास रिगार्डिंग सर्वनाम। सर्वनाम इज डिफरेंट फ्रॉम सर्वनाम स्थान। देयर आर टू संज्ञास, सर्वनाम स्थान एंड सर्वनाम। सो वी नो व्हाट इज सर्वनाम स्थान, दैट आई एक्सप्लेन। देयर आर टू सूत्रास, शी सर्वनाम स्थानम एंड सुट अनपुंसकस्य। किंतु सर्वनाम इति अन्यत् अन्या संज्ञा, इज अ डिफरेंट संज्ञा। एंड द फर्स्ट सूत्र ఈ సర్వాదీని సర్వనామాని, ఇస్ ద మెయిన్ సూత్ర, సర్వనామ సంజ్ఞా విధాయక ప్రధాన సూత్రం ఇదమస్తి. సో సర్వాదీని, దేర్ ఇస్ అ గణ, సర్వ ఎక్సెట్రా, సర్వాదీని సర్వనామ సంజ్ఞాం ప్రాప్నువంతి ఇతి అర్థః. సో దేర్ ఆర్ మెనీ వర్డ్స్ ఇన్ దిస్ గణ, దే గెట్ సర్వనామ స్థాన సంజ్ఞా. సమ్ వర్డ్స్ ఆర్ వెరీ ఫేమస్, వి జనరల్లీ యూజ్. ఫర్ ఎగ్జాంపుల్ సర్వ ఇస్ అ సర్వనామ సంజ్ఞా అస్తి. And saha, esha, means tat shabda, etat shabda, ete sarvepi sarvanama shabda. So the words which are listed in this, which are mentioned in this gana, they are called sarvanama shabdas. Astu? Yeah. So, vayam keshantana sarvanama shabdanam prakriyam pashyamaha. Tatra, here I have given the pratyaya chart, which is samanya pratyaya. Samanya pratyaya, which is given in Ashtadhyayi, direct, suvauja, samaut, shas, au, shas, shas, this is just and shas, but only as remains. Ta, ta bhyam phis, nge bhyam phyas, nge bhyam phyas, ngasi bhyam phyas, ngas os am, oh, again, it is not ni, this is, it should be e. Ni o super. Ete will samane pratyaha santi. अत्र ई इति प्रत्ययः, सो अस्तु. किन्तु देन् ऐ हेव् गिवन् द अकारान्त पुल्लिङ्गे किं परिवर्तनं जातं तत् लिखितमस्ति. अत्र इन तृतीया विभक्ति एकवचने इन, दिस् वास् द प्रत्यय. फर् एक्साम्पल् विड्रामेण, दिस् अ प्रत्यय फर् अकारान्त पुल्लिङ्ग. एण्ड् रामाय, इन्स्टेड् आफ् ए य वास् द प्रत्यय. एण्ड् रामात्, रामस्य. एण्ड् इट् बिकेम् रामान्, रामैः, रामाणां. सो एतानि परिवर्तनानि आसन् नकारान्त पुल्लिङ्गे, एतानि परिवर्तनानि आसन्. बट् इफ् वि सी akaranta sarvanama shabda, then some more changes are there. Akaranta, this is akaranta rama shabda, for example. This akaranta samanya shabda asti, but this is akaranta sarvanama shabda asti. So atra pratyaye punaha parivartanam asti, there are some changes in pratyayas. In prathama vibhakti bahuvachana, the pratyaya is e, dirgha ikara. Kimartham? There is a sutra, jasaha shi. నకారాంత సర్వనామ శబ్ద చేత తదా జసః షీ ఇతి ఆదేశః భవతి. సో షీ రిప్లేసెస్ జస్. అండ్ షీ ఇత్యత్ర షకారస్య ఇచ్ఛం నాస్తి, అతః కేవలం ఈ ఇతి అవశిష్యతే. ఏవంచ హియర్ ఇట్ ఇస్ ఈ ఇతి ప్రత్యయః. అండ్ ద్వితీయ భక్తి బహువచన సేమ్, ఇట్ చేంజెస్ బికమ్స్ అన్, ద అస్ బికమ్స్ అన్. And tritiya ekavachana ina, but in tritiya bahuvachana saru अगेन इट इज सेम ऐस अत्रापि ऐस इत्येव अस्ति अत्रापि ऐस इत्येव अस्ति बट इन चतुर्थी बहुवचन नकारांत शब्द इट वाज य बट इन नकारांत सर्वनाम शब्द इट इज मई प्रत्ययः परिवर्तते तत्र सूत्रमस्ति सर्वनाम्नः स्मै इति सर्वनाम शब्द अकारांत सर्वनाम तदा स्मै इति प्रत्ययः अतः य इति प्रत्ययः नास्ति किन्तु स्मै इति प्रत्ययः अकारांत सर्वनाम शब्दः चेत् एंड इन पंचमे विभक्ति इट वाज आत् बट हियर इन अकारांत सर्वनाम इट इज स्मात् तत्र सूत्रम ngasinyoh smat sminau smin in bahuvachana sorry in saptame vibhakti ekavachana it is smin and panchame vibhakti ekavachana smat smat sminau ekasmin eva sutre dvayam api uktam atah atra pratyayasya parivartanam bhavati and in shashti vibhakti bahuvachana अत्र नाम इति आसीत् प्रत्ययः मीन्स नुट् आगमः आसीत् बट हियर इन सर्वनाम अकारांत सर्वनाम शब्दः चेत् द प्रत्यय इज साम बिकॉज इट गेट्स सुट इंस्टेड ऑफ नुट् आगम सर्वनाम शब्द गेट्स सुट आगम सी आमि सर्वनामनः सुट इति सुडागमः भवति सो दीस आर द चेंजेस इफ इट इज अकारांत सर्वनाम शब्द तदा एतानि परिवर्तनानि भवन्ति अतः अकारांत राम शब्दस्य रूपं यथा अस्ति तथा अकारांत सर्व शब्दस्य रूपं रूपाणि न भवन्ति किमर्थं न भवन्ति इति चेत् सर्वनाम शब्दात् प्रत्ययः परिवर्तन्ते अतः अत्र सामान्य प्रत्ययः सन्ति किं कंपेयर सामान्य प्रत्ययः दीस आर सर्वनाम प्रत्ययः अकारांत सर्वनाम शब्दः चेत् तस्मात् एते प्रत्ययः अस्तु देन आई हैव आल्सो गिवन प्रत्ययस् फॉर आकारांत स्त्रीलिंग शब्द सी हियर आकारांत स्त्रीलिंग फॉर एग्जांपल वी डिड थिंक रमा शब्द चेत दीस फॉर द प्रत्ययस् इन प्रथमा भक्ति द्विवचन द प्रत्यय वाज ई देयरफॉर इट बिकेम रमे एंड अत्र चतुर्थी रमायै इति रूपं कृतं रमायाः रमायाः रमाणां रमायां दिस आर द चेंजेस आकारांत स्त्रीलिंग शब्द किंतु आकारांत सर्वनाम इट इज आकारांत सर्वनाम फॉर एग्जांपल सर्वा शब्द अस्ति सर्वा सर्व इति अपि अस्ति दैट इज आकारांत पुल्लिंग And sarva is stirlinga shabda. Sarva, sarva. Atrapi, these are the same. See, here, these pratyas are similar. But atra, chaturthi ekavatane, instead of yai, it is syai. Syai iti pratyaya. And panchami, instead of yas, it is syas. Sarva trapi, so sakara added. बिफोर दत्यय सप्तमी चेत बिकॉज हियर हैव रिटन द सूत्र सर्वनाम्नः स्याढ्रस्वश्च इति सूत्रमस्ति स्याट् इति आगमः भवति अतः अत्र इन आकारांत रमा शब्द इट वाज याड आगम therefore ya iti agatam sarvatra but it is if it is sarvanama then it is syat agama ata sarvatra sya 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 iti arabhate and shashti bahuvachana the pratyay is sam instead of nam it is sam because again it gets sudagama nutagama nasti sutagama bhavati evancha so these are the changes so akarant sarvanama shabdah chet प्रत्ययः एवं भवन्ति एंड आकारांत सर्वनाम शब्दः चेत् प्रत्ययः एवं भवन्ति ओके अतः रमा रामशब्दस्य सर्वशब्दस्य च दो गोतरकारान्तशब्दास् राम एण्ड् सर्व किन्तु रूपं समानं नास्ति किमर्थं न नास्ति प्रत्ययः समानः नास्ति एवम् आकारान्तरमाशब्द एण्ड् आकारान्त सर्वाशब्द दो भूतार आकारान्तास् रूपं समानं नास्ति सर्वत्र किमर्थं नास्ति बिकास् सम् प्रत्ययस् चेञ्ज् अस्तु इदानीम् एकम् उदाहरणं पश्यामः प्रथमम् अकारान्त सर्वशब्दः अकारान्त सर्वशब्दः प्रश्नाः सन्ति वा किम् सर्वनाम मीन्स् प्रोनौन् वी केन् ट्रान्स्लेट् एस् अ प्रोनौन् बट् सर्वनाम इस् अ संज्ञा अकार्डिङ्ग् टु पाणिनि सर्वनाम इस् अ संज्ञा संज्ञा अस्ति एण्ड् हि गेव् अ लिस्ट् आफ् सर्वनाम सो दोस् आर् गिवन् दोस् आर् लिस्टेड् दे आर् काल्ड् सर्वनाम अतः फार् एक्साम्पल् देर् इस् सो वी कान्ट् से आल् आर् प्रोनौन्स् यतः द्विशब्दः अपि अस्ति इवन् दट् द्विशब्द एण्ड् ऐ थिङ्क् एकशब् there are few read see atra and actually in sarvanama gana sam pratyas are also mentioned datara datama there are two pratyas the word which ends with these pratyas they are also called sarvanama and even eka and dvi ekam we know ekam is a sankhya shabda and dvi is also sankhya shabda but they are also in sarvanama gana but I don't think they are pronouns atah is translating to english is not correct because all the words which are in listed under this sarvanama gana they are not pronouns atah so according to panini sarvanama is a samjna and he listed some words under this sarvanama so he had given sarvanama samjna to few words and some rules are applicable some other extra rules are applicable to these words iti panini he kramah What is the basis for making these changes for sarvanama shabda? Kaha artha, what is the basis means? There are rules. That is the basis. Means, which type of basis intended? Sutram asti. Paninehe sutrani santi. So, panine kimartham sutram karoti iti te, there are such usages. So, paninehe prayogam drishtva sutrani karoti. Sutram drishtva prayogahana. Sutaha. प्रयोगः अस्ति लोके सच् वर्ड्स् आर् दे अतः सूत्राणि सन्ति अतः प्रयोगः एव तत्र पाणिनेः सूत्राणां बेसिस् तद्दृष्ट्वा वयं पुनः प्रयोगं कुर्मः अतः किम् इत्यस्य कः अर्थः स्मिन् प्रत्ययस्य विवरणं स्मिन् प्रत्ययस्य विवरणं नाम इट् स्मिन् रिप्लेसस् ई प्रत्यय सामान्यप्रत्यय इस् ई As saying, e means it is a ngi, it's the original pratyaya. It will be replaced with smin. So the sutra says, ngasi nyoho, nyoho, ngi, smat smino. Smat and smin replace ngasi and ngi. Iti artha. Do they also have bhasamjna and sarvanamas samjna? Okay. Sarvanama samjna, yes, it is there. Because atra sutram kimapi nasti which rejects or with bars sarvanama bhasamnya ataha asteva sarvanama sthana samnya asti bhasamnya asti pada samnya asti tatram asteva ha and sadashyam ji says sarva itself is not pranam so samyak so sarva itteva pranam nasti ataha translating it as a pranam iti samyakna So, Mama, Ashaya, what I feel is we should not translate. We have to explain what it is. So, Sarvanama, we should not translate it as a pronoun. Instead of translating, we have to explain what is Sarvanama. Etaha, Sarvam Samanam Nasti. Ketana Vishesham Shasanti. So, if you translate, we miss some concepts. Astho. पर्वतनाथजी प्रश्न अस्त
नमस्ते महोदय सर्वनाम पदानाम लिस्ट दत्तवान पाणिनिः इति भवान उक्तवान भवान लिस्ट दर्शयितुं शक्नोति वा अत्र
लिस्ट दर्शयितुं कष्टं अत्र सूत्रं लिखितं देयरफॉर आई रोट द सूत्र हियर सर्वादीनि सर्वनामानि 1127
1127
देयर आर फ्यू मोर रूल्स बट दिस इज द मेन रूल ఇతోపి సూత్రాన్ని సంతి ఇదం ప్రధాన సూత్రం ఇఫ్ యు లుక్ అట్ దట్ సూత్ర యు విల్ గెట్ ద లిస్ట్ అస్తు సర్వనామ వాట్ ఇస్ అహం త్వం ఇవం అయం ఏతే సర్వేపి సర్వనామ శబ్దాః ఏవ అహం త్వం సో అక్చువల్లీ అహం ఇస్ అస్మత్ శబ్ద త్వం ఇస్ యుష్మత్ శబ్ద ఏతే సర్వేపి సర్వనామ గణే సంతి సత్యం అతః యు కెన్ గెట్ దోస్ వర్డ్స్ సర్వనామ ఆల్ ది సర్వాది ఇఫ్ యు లుక్ ఎట్ ది సర్వాదిని సర్వనామాని యు విల్ గెట్ ద లిస్ట్ ఆఫ్ sarvadis sarvanama word asto idanim ekam udaharanam pashyamah prathamam akaraanta sarvanama shabdah sarva itteva shabdah asti prathama bhakti ekavachane it is sarvah like ramah ata visheshah nasti atra vish sarvah then sarva plus au so if pratyaya is not given it means samanya pratyaya is applicable so sarva plus au is sarvau like ramau atra api visheshah nasti atah we did all rama shabda sarvau then sarva plus as so now instead of us atra e iti pratyaya asti atah గుణసంధి బికమ్ సర్వే సో సర్వః సర్వౌ సర్వే దెన్ సర్వ ప్లస్ అం అత్ర అగైన్ ఇట్స్ లైక్ రామం విశేష నాస్తి సర్వం సర్వ ప్లస్ ఔ సర్వౌ సర్వ ప్లస్ అస్ లైక్ రామాన్ హియర్ బికమ్స్ సర్వాన్ అగైన్ ఐ డోంట్ ఐ ఆమ్ నాట్ ఎక్స్ప్లెయినింగ్ ద ప్రక్రియ బికాస్ వి డిడ్ ద ప్రక్రియ అండ్ రామ శబ్ద సో లైక్ రామాన్ హియర్ ఇట్ ఇస్ సర్వాన్ దెన్ సర్వ ప్లస్ ఇన సర్వేణ లైక్ రామేణ ఇట్ ఈస్ సర్వేణ దెన్ సర్వ ప్లస్ భ్యాం సర్వాభ్యాం లైక్ రామాభ్యాం అత్ర విశేష నాస్తి దెన్ ఐస్ లైక్ రామైహి హియర్ ఇట్ ఈస్ సర్వైహి Then in Chaturthi, instead of here in Rama Shabda, we did Ramaya, but here it is Sarvasmai. Sarva plus Mai, Sarvasmai. Kevalam Pratyasya Yojanam. Anyat Kimapi Karyam Nasti. Sarva, Smai, Sarvasmai. Then Sarva plus Bhyam, Sarva Bhyam, Dirgha Bhavati, like Rama Bhyam. Rama Bhyam, Rama Bhyam, Dirgha. Sarva Bhyam, Sarva Bhyam. Then Sarva plus Bhyas, Sarve Bhyaha, like Rame Bhyaha, it gets Ekara. Bahuvachana. Then Panchami, here it was Ramat, but in Sarva Shabda it is Sarvasmat. Sarva plus Smat, Sarvasmat. Then Sarvabhyam, Sarve Bhyaha. In Shasti again it is Ekavachanai, Samanam Rupam, Sarvasya. Sarva Yoho, like Rama Yoho. Then in Bahuvachana, Naam iti pratyaha nasti, kintu saam iti pratyaha, sarva saam, then it gets ekara, sarve saam. That I will write here. Sarva plus saam, then it gets ekara, you know, bahuvachana, everywhere we did ekara, see, sarvebhyaha. Sarvebhyaha, sarvatrapi ekara bhavati, like ramebhyaha, the bahuvachane chalyet, we read this sutra. And now sarva plus sam, idanim ekaraha, sarve plus sam, ekaraha, sarve sam. Now that sakara, guess sakara. Sarvesham. Sarve. Sakarasya shakaraha sarvesham. The rule we studied, Adesha Pratyayoh. We applied this rule in Rameshu. Rameshu. Saptame Bahuvachane Ramesu ityasi. Then it became Rameshu. Shakaraha gataha. The sutra was Adesha Pratyayoho. Evameva Atrapi Sarve Sam Ityasit. Then Sakarasya Shakaraha. It becomes Sarve Sham. Atashti Bhavatanam Sarve Sham. Then Saptami Ekavatana Sarva plus Smin Sarvasmin. Shasti Saptami Divatana Rama Yoho in Rama Shabda. Sarva Yoho in Sarva Shabda. Samanamasti. Then Bahuvachana, Saptame Bahuvachana, in the Rama Shabda it was Rameshu, Atra Sarveshu, Visheshaha Nasti. Okay? Ataha Yatra Pratyaha Anyahasti, Tatra Kevalam Parivartanam Bhavati. Venkateshwaranji Prashnahasti Iti Bhati, but trying to unmute, but it's not working. Venkateshwaranji. Prashna nasti va? Unmute kratam, puna mute tabot. Self-muted is there, say it. Okay.
Namaste.
Vandu.
Sir, this Tritiya Vibhakti Ekavachana, Sarve Na. That interviewing is Va. So, how that Natvam comes?
Uttamam. See, the rule which I mentioned previously, at Kup Vangnum Vyavayeti. So the first the sutra begins with at. At is a pratyahara. અ ઈવન રલક એ ઓમ આઈ આઉટ હ ય વ રટ હ ય વ રટ સો ઇટ ઇન્ક્લુડ્સ વકાર ઇસ પ્રત્યાહાર ઇન્ક્લુડ્સ વકાર દેફોર though it is vakara sarvena it is in at pratyahara atah natvam bhavati
tanya
is it clear
clear
oh, okay yeah ha asto now in stirlinga sarva shabda how it became sarva sarva in stirlinga we have to add stri pratyaya so there is a pratyaya called tap only a remains in that pratyaya so sarva plus a savarna dirgha sandhi then it becomes sarva so now it is akaranta shabda sarva akaranta shabda we added a stri pratyaya to get akaranta stirlinga shabda now sarva shabda idanim katham prakriya sarva plus s as we did in akaranta stirlinga shabda atrapi su pratyasya lopaha bhavati udaharanartham we can take shala shabda shala shale shalaah like that sarva sarve sarvaah then dvitiya vibhakti shalam shale shalaah samanam sarvam sarve sarvaah then tritiya shalaya shalaabhyam shalaabhih same sarvaya sarvaabhyam sarvaabhih sarvaya sarvaabhyam sarvaabhih because it's akaranta shabda sarvaabhih akara asti then chaturthi here we did shalayai shalayai iti pratyaya asti kintu atra syai iti pratyaya and we can this is a sutra as I mentioned and the sutra says hrasvascha hrasvah bhavati iti vadati kutra hrasvah bhavati see sarva shabda sarva plus syai so atra dirgha asti sarva iti dirgha asti tatra hrasva bhavati so sarva becomes sarva hrasva sarva plus syai sarva syai sarva plus syai iti asit hrasva bhavati so sarvasyai kintu atra in akaranta shala shabda it was shalayai dirgha asti but in sarvanama shabda sarvasyai dirgha nasti kintu hrasva astu sarvasyai sarvabhyam sarvabhyah then panchami in shala shabda shalayah dirgha asti but in sarva shabda sarva shabda sarvasyah again hrasva wherever there is sya wherever there is sya hrasva is also applicable atah sarvasyah sarvabhyam sarvabhyah jan shashti sarvasyah again hrasva sarvasyah sarvayoh like shalayoh atra samanam and shashti bahuvachana here in we did in shala shabda shalanam but in sarva shabda sarva sam sam iti pratyaya atah sarva sam sarva dirgha asti atra hrasva nasti so sarva sam okay then saptami ekavachana in shala shabda it was shalayam but in sarva shabda again hasvah bhavati सर्वस्याम सर्वस्याम द्विवचन सर्वयोः लेक्षालयोः देन बहुवचन लेक्षालासु अत्र सर्वासु अस्तु एवञ्च केवलं एतेषु स्थानेषु सै स्याम स्याम सै स्या स्याह स्याम एंड दिस एतेषु स्थानेषु परिवर्तनं भवति सर्वस्यै सर्वस्याः सर्वस्याः सर्वस्याम सर्वासाम एतेषु स्थानेषु परिवर्तनम् अन्यत्र रमा शब्दः अथवा शाला शब्दः तत्र यथा रूपाणि तद्वत् अत्रापि रूपाणि भवन्ति अस्तु एवञ्च अकारान्त रामशब्दस्य अकारान्त सर्वशब्दस्य च रूपाणि समानानि न सन्ति किमर्थम् अत्र केचन प्रत्ययाः परिवर्तन्ते इति एकः अंशः एवम् आकारान्त सर्वशब्दः तत्रापि प्रत्ययाः परिवर्तन्ते अतः कानिचन परिवर्तनानि सन्ति एण्ड् ऐ शोड् दिस् सर्वा प्लस् टा टा इति स्त्रीप्रत्ययः स्त्रीप्रत्ययः नाट् टा सारी सर्वा प्लस् टाप् इट् वास् टाप् अत्र टाप् इति स्त्रीप्रत्ययः भवति अतः सर्वा इति रूपं सिद्ध्यति अस्तु इतः परं एते सम् मोर् सर्वनामशब्दास् सर् फेमस् सर्वनामशब्दास् अतः तस्यापि प्रक्रियां दर्शयिष्यामि तद् एतद् यद् किम् एतेपि सर्वनामशब्दाः सन्ति प्रथमम् एकं स्वीकुर्मः तद् शब्दः किं भवति तद् यद्यपि दो इट् इस् दकारान्त अत्र अधः लिखामि तद् शब्दः तद् सु एकम् उदाहरणं दर्शयामि तद् सु सु इति अवशिष्यते तद् सु नौ देर् इस् हेर् हगिवन् सूत्रं त्यदादीनाम् अह त्यद् आदि त्यद् एक्सेट्रा सो दिस् आर् दीस् वर्ड्स् आर् इन् सर्वनामगण एते सर्वनामगणे सन्ति सो इफ् यु लुक् एट् सर्वादीनि सर्वनामानि यु विल् गेट् त्यद् एक्सेट्रा तेषाम् अह भवति मीन्स् दट् दिस् दकार दकारस्य स्थाने अकारः भवति सो तद् बिकम्स् त प्लस् अ देन् वि स्टडीड् अ रूल् अतो गुणे अतः अतः मीन्स् ह्रस्व अकार ह्रस्व अकारात् गुणे गुणे मीन्स् गुणवर्ण अ ए ओ अक अ ए ओ एते गुणवर्णाः इति कथ्यन्ते अतः गुणवर्णे परे पररूपं पररूप दिस् इस् द पररूप दिस् इस् पूररूप दिस् इस् पर पर द लेटर् वन् रिप्लेसस् बोत् द लेटर्स् मीन्स् द अकार रिप्लेसस् बोत् अकार अतः त इत्येव अवशिष्यते सो तद् बिकम्स् त यतो गुणे सो त प्लस् नौ दिस् रूल् इस् अप्लिकेबल् तदोः सः सौ अनन्त्ययोः वेन् सु प्रत्यय फालोस् तदा तद् शब्दस्य यः तकारः अस्ति तस्य स्थाने सकारः भवति सु रिप्लेसस् तु therefore it becomes sa sa sas then the sakara gets repha then visarga therefore it is saha so prathama vibhakti ekavachanam do datta shabda the moola is tad pratipadikam tad ityasti kintu prathama vibhakti ekavachane rupam saha iti bhavati katham si tad plus su then tadadinam aha it akara replaces last letter that is dakara ta a then ato gune para rupa para rupa para form param rupam kimasti, that is akara, this is para akara replaces both letters, the previous the again 2 plus there is the one more akara here atrapeka akara asti, so the later akara replaces both the previous akara and itself. Ataha a itteva, then it became ta, ta plus tas iti bhavati, tatas param tadoho saha sau anantyayoho iti sutrena takarasya sthane sakaraha sas sakarasya repaha then visarga saha iti rupam. Okay, iti prathama bhaktehe ekavachane atra saha iti rupam. Tatah param, see, though it is dakaranta, it gets forms like akaranta shabda only. That means like sarva shabda. It is rupam sarva shabda vadeva bhavati. Kimartham sarva shabda vat rupam bhavati? Because atah tadadi namaha iti sutra masti. So this rule is applicable in all vibhaktis. Sarvasu vibhaktishu api tadadi namaha iti sutrasya anvayaha bhavateva. Atha sarvatrapi dakarasya sthane akara bhavati. In all vibhaktis, du will be replaced with a. Therefore, tad becomes ta. Means in all vibhaktis, it becomes akaranta. Though originally it is halanta, it becomes akaranta in all vibhaktis. Therefore, it gets. So the forms are very similar to sarvashabda. So, ataha. In Pratama Bhakti Ekavachana only, there is some change, that is becomes Saha. Then in Divatana, it is Tau, Ta plus Au. Like Sarvau, it is Tau. Then Ta plus E, like Sarve, Saha, Tau, here it is Te, Ta plus E, Te, Gunaha. Then Ta plus Am, Tam. Like Sarvam, here it is Tam. Tam. Tau tan like sarvan, then tena like sarvena, tena tabhyam like sarvabhyam, taihi like sarvaihi, then tasmai like sarvasmai, tasmai tabhyam tebhyah, tasmat 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 tabhyam tebhyah, tasya like sarvasya, tayoho like sarvayoho, then sarvesham atra tesham, again the sakara gets sakara, te murdhanya tesham iti rupam sakarasya sakara bhavati samsutram jananti adesha pratyayoho. Then tasmin, like sarvasmin, sarvayoho atra tayoho, then sarveshu atra teshu. Therefore, though it is dakaranta, akaranta sarvashabda vateva rupani prapnoti. Kimartham akaranta vat rupani prapnoti? Because tadadi nam aha iti sutrena sarvasu vibhaktishu dakarasya sthane akaraha bhavati. Atah ayam ta atra ta iti rupam prapyate, tad becomes ta, therefore it gets forms like sarva shabda. Halnyabhyo dirghat sutisya pruktam hal doesn't work here. No, because we are applying tadadina maha. So idam vishesha sutram asti tadadiye namaha is said only for these few shabdas, atah vishesha sutram asti, therefore we have to apply this sutra first. Atah tadadiye namaha yada bhavati, then there is no hal. When we apply this tadadiye namaha, then it doesn't end with hal, halanta shabdah nasti. Atah halnyabhyo iti sutrasya pravrittih api na bhavati. Okay, अस्तु एवम् अन्येपि केचन शब्दाः सन्ति एतद् यद् किम् एतेषां विषये अग्रिमपाठे पश्यामः इदानीं समयः जातः यदि अत्र कोऽपि प्रश्नः अस्ति चेत् पृच्छन्तु अन्यथा समापयामः अस्तु तर्हि अत्र समापयामः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। अस्तु।